ओम नमो भगवते वासुदेवाय। अथ द्वाविंशोऽध्यायः। राजोवाच यदेतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनामभिमुखं प्रचलितं च प्रदक्षिणं भगवतोपवर्णितममुष्य वयं कथमनुमिमीमहीति। सहोवाच यथाकुलालचक्रेण भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेष्वप्युपलभ्यमानत्वादेवं नक्षत्रराशिभिरुपलक्षितेन कालचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे चोपलभ्यमानत्वात् स एष भगवानादिपुरुष एव साक्षान्नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्मविशुद्धिनिमित्तं कविभिरपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिश्रुतुषु यथोपजोषमृतुगुणान् विदधाति। तमेतमिह पुरुषास्त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिराम्नातैर्योगवितानैश्च श्रद्धया यजन्तोऽञ्जसा श्रेयः समधिगच्छन्ति। अथ स एष आत्मा लोकानां द्यावा पृथिव्योरन्तरेण नभो वलयस्य कालचक्रगतो द्वादशमासान् भुङ्क्ते राशिसंज्ञान् संवत्सरा वयवान् मासः पक्षद्वयं दिवानक्तं चेति सपादर्क्षद्वयमुपदिशन्ति यावता षष्ठमंशं भुञ्जीत स वै ऋतुरित्युपदिश्यते संवत्सरा वयवः। अथ च यावतार्धेन नभो वीथ्यां प्रचरति तं कालमयनमाचक्षते। अथ च यावन्नभो मण्डलं सह द्यावा पृथिव्योर्मण्डलाभ्यां काट्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्य शैग्र्य समगतिभिः समामनन्ति। एवं चन्द्रमा अर्कगभस्तिभ्य उपरिष्टाल्लक्षयोजनत उपलभ्यमानोऽर्कस्य संवत्सरभुक्तिं पक्षाभ्यां मासभुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्षभुक्तिमग्रचारी द्रुततरगमनो भुङ्क्ते। अथ चापूर्यमाणाभिश्च कलाभिरमराणां क्षीयमाणाभिश्च कलापिः पितॄणामहोरात्राणि पूर्वपक्षापरपक्षाभ्यां वितन्वानः सर्वजीवनिवः प्राणो जीवश्चैकमेकं नक्षत्रं त्रिंशता मुहूर्तैर्भुङ्क्ते। य एष षोडशकलः पुरुषो भगवान् मनोमयोऽन्नमयो मृतमयो देव पितृमनुष्यभूतपशुपक्षिसरीसृपवीरुधां प्राणाप्यायनशीलत्वात् सर्वमय इति वर्णयन्ति। तत उपरिष्टात्रिलक्षयोजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वरयोजितानि सहाभिजिताष्टाविंशतिः। तत उपरिष्टादुशनाद्विलक्षयोजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य सैघ्र्य मान्द्यसाम्याभिर् गतिभिरर्कवच्चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश्चारेणानुमीयते स वृष्टिविष्टं ध्वग्रहोपशमनः। उशनसा बुधो व्याख्यातस्तत उपरिष्टात् द्विलक्षयोजनतो बुध सोमसुत उपलभ्यमानः प्रायेण शुभकृद् यदार्काद् व्यतिरिच्येत तदातीवाताभ्रप्रायाना वृष्ट्यादिभयमाशंसते। अत ऊर्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उपलभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभग्रहोगशंसः। तत उपरिष्टाद्विलक्षयोजनान्तर्गतो भगवान् बृहस्पतिरेकैकस्मिन् रासौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मणकुलस्य। तत उपरिष्टाद् योजनलक्षद्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन्मासान् विलम्बमानः सर्वानेवानुपर्येति तावद्भिरनुवत्सरैः प्रायेण हि सर्वेषां शान्तिकरः। तत उत्तरस्मादृशय एकादशलक्षयोजनान्तर उपलभ्यन्ते य एव लोकानां समनुभावयन्तो भगवतो विष्णोर्यत्परमं पदं प्रदक्षिणं प्रक्रमन्ति। ओं स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां पञ्चमस्कन्दे ज्योतिश्चक्रवर्णने द्वाविंशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।